नारंते परम विदुषो यद्य सदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः अथा वाच्यः सर्वस्व मतिपरिणामवधिगृणन् ममाप्येष स्तोत्रे हरनिरपवादपरिकरः अतीतः पन्थानं तव च महिमावान्मनसयो रतव्यावृत्यायं चकितमभिधत्ते श्रुतिरपि सकस्य स्तोतौ यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः मधुस्पीता वाचः परममृतं निर्मितवतस्तव ब्रह्मन् वाण्या अपि सुरगुरोर्विस्मयपदम् मम त्वेतां वाणी गुणकथनपुण्येन भवतः पुनात्यस्मिन्नर्थे पुरमधनबुद्धिर्व्यवसिता तवैश्वर्यं यत्त जगदुदयरक्षाप्रलयकृत्रयी वस्तुव्यस्तं तिसृषु गुणभिनासु तनुषु अभव्यानामस्मिन् वरदरमणीयामरमणीं विहन्तु व्याक्रोशी विदधत इहैको जडधियः किं कायः स खलु किमुपायस्त्रिभुवनम् किमाधारोथाता सृजति किमुपादानयिति च अतर्कैश्वर्ये त्वय्यनवसरतुस्थो हतधियः कुतर्कोऽयम् कांश्चिन्मुखरयति मोहाय जगताम् अजन्मानो लोकाः किमवयववन्तोऽपि जगताम् अधिष्ठातारं किं भवविधिरनादृत्य भवति अनीशो वा कुर्यात् भुवनजननेकः परिकरो भवेन्मन्दास्त्वां प्रत्यमरवरसं सेरतयिमे त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदपथ्यमिति च रुचीनां वैचित्र्याद्रुजुकुटिलनानापदजुषा नृणामेको गम्यस्त्वमसि पयसमर्णव इव महोक्षः खट्वाङ्गं परसुरजिनं भस्मपणिन कपालं चेति यत्तव वरदयन्त्रोपकरणम् सुरास्तां तामृद्धिं दधति तु भवद्भ्रूप्रणिहितां नहि स्वात्मा रामं विषयमृगतृष्णा भ्रमयति ध्रुवं कश्चिद् भ्रूते सकलमपर स्वध्रुवमिदं परो द्रव्याद्रव्ये जगति गदति व्यस्त विषये समस्ते प्येतस्मिन् पुरमथनतैर्विस्मय इव स्तुवन् जिह्रेमि त्वा न खलु ननु दृष्टा मुखरत तवैश्वर्यं यत्नाद्यदुपरि विरिञ्चो हरिरथा परिच्छेत्तुं यातावनलमनल स्कन्धवपुषः ततो भक्तिश्रद्धा भरगुरुगृणभ्यां गिरिश यत्स्वयं तस्ते ताभ्यां तव किमनुवृत्तिर्न फलति अयत्तादापाद्य त्रिभुवन मवैरव्यतिकरम् दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् शिरः पद्मश्रेणीरचित चरणाम्भोरुहबले स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् अमुष्यत्वत्सेवासमधिगतसारं भुजवनं बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः अलभ्यापातालेऽप्य लसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासि ध्रुव मुपचितो मुह्यति ततः यद्रुद्धिं सूत्राम्नो वरद परमोश्चैरपि सतीमधिश्चक्रे बाणः परिजनविधेयत्रि भुवनः न तच्छित्रं तस्मिन् परिवसितरि त्वच्छरणयोर्न कस्य पुन्नत्यै भवति शिरसस्त्वय्यवनतिः अखाण्डब्रह्माण्डक्षयचकित देवासुर कृपा विधेयस्यासीद्यस्त्रिनयन विषं संहृतवतः सकल्माषः कण्ठेन तव गुरुतेन श्रियमहो विकारोऽपि श्लाघ्यो भुवनभयभङ्गौ व्यसनिनः असिद्धार्ता नैव क्वचिदपि स देवा सुरनर निवर्तन्ते नित्यम् जगति जयिनो यस्य विशिखाः स जानन्नीश त्वामितरसुरसाधारणमभूत् स्मर स्मर्तव्यात्मान हि वसिषुपद्यः परिभवः महीपादाघाताद्व्रजति सहसा संशयपदम् पदं विष्णोर्भ्राम्य भुजपरिघरुघ्न ग्रहगणम् मुहुर्द्यौर्द्यौस्त्यं याद्यनिभृत जटाताडिततट जगद्रक्षायै त्वं ನಟಸಿ ನನು ವಾಮೈವ ವಿಭೂತ. ವ್ಯಾಪತ್ತಾರಾಗಣಗುಣಿತ ಫೇನೋಗ್ಗಮರುಚಿ ಪ್ರವಾಹೋ ವಾರಾಮ್ಯ ಪೃಷತಲಘುದೃಷ್ಟ ಶಿರಸಿತೆ ಜಗದ್ವೀಪಾಕಾರಂ ಜಲಧಿವಲಯಂ ತೇನ ಕೃತಮಿತ್ಯನೇನೈವೋನ್ನೇಯಂ ಧೃತಮಹಿಮದ್ಯು ತವ ವಪುಃ ರಥ ಕ್ಷೋಣೀಯಂತ ಶತಧೃತಿರಧೇಂದ್ರೋ ಧನುರಥೋ ರಥಾಂಕೇ ಚಂದ್ರಾರ್ಕೌ ರಥಚರಣ ಪಾಣಿ ಶರಯಿತೆ ದಿಧಕ್ಷೋಸ್ಥೆ ಕೋಯಂ ತ್ರಿಪುರ ತೃಣಮಾಡಂಬರ ವಿಧಿರ್ವಿಧೇಯೈಹಿ ಕ್ರೀಡಂತ್ಯೋ ನ ಖಲು ಫಲತಂತ್ರ ಪ್ರಭುದಿಯಃ ಹರಿಸ್ತೆ ಸಾಹಸ್ರಂ ಕಮಲಬಲಿಮಾಧಾಯ ಪದಯೋ ಯದೇಕೋ ನೇತಸ್ಮಿನ್ ನಿಜಮುದಹರನ್ ನೇತ್ರಕಮಲಂ ಗತೋ ಭಕ್ತುದ್ರೇಕಃ ಪರಿಣತಿಮಸೌ ಚಕ್ರವಪುಷ ತ್ರಯಾಣಾಂ ರಕ್ಷಾಯೈ ತ್ರಿಪುರಹರ ಜಾಗರ್ತಿ ಜಗತಾ ಕ್ರತೌ ಸುಪ್ತೆ ಜಾಗ್ರತ್ವಮಸಿ ಫಲಯೋಗೇ ಕ್ರತುಮತಾ ವಕರ್ಮ ಪ್ರಧ್ವಸ್ಥಂ ಫಲತಿ ಪುರುಷಾರಾಧನಮೃತೆ ಅತಸ್ತ್ವಾಂ ಸಂಪ್ರೇಕ್ಷ್ಯ ಕ್ರತುಷು ಫಲದಾನ ಪ್ರತಿಭುವಂ ಶ್ರುತೌ ಶ್ರದ್ಧಾಂ ಬದ್ಧ್ವಾ ದೃಢ ಪರಿಕರಂ ಕರ್ಮ ಸುಜನ. ದಕ್ಷೋ ದಕ್ಷ ಕ್ರತುಪತಿರಧೀಶ ತನುಭೃತ ಮೃಷೀಣಾಮಾರ್ತ್ವಿಜ್ಯಂ ಶರಣದ ಸದಸ್ಯಾಸುರಗಣಾಃ ಕ್ರತುಭ್ರೇಷ್ಠಸ್ತ್ವತ್ತಃ ಕ್ರತುಷು ಫಲದಾನ ವ್ಯಸನಿನು ಧ್ರುವಂ ಕರ್ತುಃ ಶ್ರದ್ಧಾ ವಿಧುರಮಭಿಚಾರಾಯ ಹಿ ಮಖಃ ಸತಾಂ ವರ್ತತ್ಯಕ್ತ್ವಾ ಶ್ರುತಿ ಸಮಧಿಗಮ್ಯಂ ಸಹ ಭುವಂ ಘೃಣಾನ್ಮಪ್ಯುನ್ಮೂಲ್ಯ ಸ್ವಜನ ವಿಷಯ ಸ್ನೇಹ ಗುಣಿತಾಂ ದ್ವಿಜ ಕೃಂತನ್ ಪಾದೇ ಪಿತರಂ ಅಪರಾರ್ಧಾಂ ತ್ವಯಿ ವಿಭೋ ಮನುಷ್ಯತ್ವಂ ಸದ್ಯ ಸ್ತ್ರಿದಶ ಪರಿಣಾಮೇನ ವಿಜಃ ಪ್ರಜಾನಾಥಂ ನಾಥ ಪ್ರಸಭಮಧಿಕಂ ಸ್ವಾ ದುಹಿತರಂ ಗತಾಂ ದೇಹೋದ್ಭೂತಾಂ ರಮಯಿತು ಮದೃಶ್ಯಸ್ಯ ವಪುಷಾ ಧನುಷ್ಪಾಣೇರ್ಯಾತಂ ದಿವಮಪಿ ಸಪತ್ರಾಕೃತಮಂ ಪರಿತ್ರಸ್ತಂ ತಂ ತೇ ತ್ಯಜತಿ ನ ಮೃಗವ್ಯಾಧರಭಸಃ ಸ್ವಲಾವಣ್ಯಾಶಂಸ धृतधनुषमह्नाय तृणवत्पुरप्लुष्टं दृष्ट्वा पुरमधनपुष्पायुधमपि यदि स्त्रैणं देवी यमनिरतदेहार्थघटनाद वैतित्वा यद्धावत वरद मुग्धा युवतयः श्मशानेष्वाक्रीडा स्मरहरा पिशाचा सहचराश्चिता भस्मालेपः स्रगपि नृकरोटी परिकरः अमङ्गल्यं शीलं तव भवतु नामैवमखिलं तदापि श्रोतॄणां वरद परमं मङ्गलमसि मनः प्रत्यक्श्चित्ते सविधमवधायात्तमरुतः प्रहृष्यद्रोमाणः प्रमदसलिलो सङ्गीतदृशः यदा लोक्याह्लादं हृदयिव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवा त्वमर्कस्त्वं सोमस्त्वम् असि पवनस्त्वं हुतवहस्त्वमापस्त्वम् व्योमत्वमुधरणिरात्मा त्वमिति च परिच्छिन्नमेवं त्वयि परिणताभिप्रतिगिरं न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि त्रयीं तिस्रो वृत्ति त्रिभुवनमधो त्रीनपि सुरा नकाराध्यैर्वर्णैस्त्रिभिः रविदधत्तीर्ण विकृति तुरीयं ते धामध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणदगृणा योमिति पदम् भवः सर्वो रुद्रः पशुपतिरधो ग्रसः महांस्तथा भीमेशानविति यदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकं प्रविचरति देवश्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमक्षोदिष्ठाय स्मरहरमहिष्ठाय च नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्त्वैते तदिदमतिशर्वाय च नमः बहुलरजसे विश्वोत्पत्तौ భవాయ నమో నమో. జనసుఖకృతే సత్వోద్రేకే మృడాయ నమో నమః. ప్రబల తమసే తత్సంహారే హరాయ నమో నమః. ప్రహత విపదే నిస్త్రైగుణ్యే శివాయ నమో నమః. కృష పరిణతి చేతః క్లేశవశ్యం క్వచేదం క్వచ తవ గుణ సీమోల్లంఘిని శశ్వదృద్ధిః. ఇతి చకిత మమందీకృత్య మాం భక్తిరాదాద్వరద. చరణయోస్తే వాక్య పుష్పోపహారం. అసితగిరి సమం స్యాత్కజ్జలం సింధుపాత్రే సురతరువర శాఖ లేఖినీ పత్రమూర్వీ లిఖతి యది గృహీత్వా శారదా సార్వకాలం తదపి తవ గుణాన మీష పారం నయాతి. వపుః ప్రాదుర్భావాదనుమితమిదం జన్మనః పురా పురారే న క్వాపి క్షణమపి భవంతం ప్రణతవాన్. నమన్ముక్తః సంప్రత్యహమతనురగ్రేప్యనతి మానితీశ క్షంతవ్యం తదిదమపరాధద్వయమపి. అసురసురమునీంద్రైరర్చితస్యేందుమౌళేర్ గ్రథితగుణమహిమ్ను నిర్గుణస్యేశ్వరస్య సకలగుణవరిష్ఠః. పుష్పదంతాభిధానో రుచిరమలఘువృత్తై స్తోత్రమేతచ్చకార. అహర హర నవద్యం ధూర్జటే స్తోత్రమేతత్ పఠతి పరమభక్త్యా శుద్ధచిత్తః పుమాన్ యః. స భవతి శివలోకే రుద్రతుల్యస్తథాత్ర ప్రచురతరధనాయుః. పుత్రవాన్ కీర్తిమాంశ్చ. దీక్షాదానం తపస్తీర్థం యోగహోమాదికా క్రియా. మహిమ్నస్తవ పాఠస్య కళాం నార్హంతి షోడసీ. మహేశాన్నాపరు దేవో మహిమ్నోనా పరస్తవః. అఘోరాన్నా పరో మ मन्त्रो नास्ति तत्त्वं गुरुः परम् असमाप्तमिदं स्तोत्रम् पूज्य गन्धर्वभाषितम् असमानं मनोहारी शिवमीश्वरवर्णनम् कुसुमदशननामा सर्वगन्धर्वराजः शशिधरवरमौली देवदेवस्य दानः सगुरुनिजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षी दिव्य दिव्य महिम्नः सुरवरमुनि पूज्यम् स्वर्गमोक्षैकहेतुम् पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः व्रजति शिवसमीपम् किन्नरैस्तूयमानः स्तवनम् इदम् अमोघम् पुष्पदन्तप्रणीतम् श्रीपुष्पदन्तमुखपङ्कजनिर्मितेन स्तोत्रेण किल्बिषहरेण हरप्रियेण कण्ठस्थितेन लिखितेन गृहस्थितेन सुप्रीणितो भवति भूत पतिर्महेशः यत्कृत्यं तन्न कृत्यं यदकृत्यं कृत्यवत्तदाचरितम् उभयोः प्रायश्चित्तम् शिव तव नामाक्षर द्वयोच्चरितम् संसार सर्पदष्टानां जन्तूनां विवेकिनां चन्द्रशेखर पादाब्ज स्मरणं परमौषधम् एककालं त्रिकालं वा सर्वदा यः पठेन्नरः सर्वपापविनिर्मुक्त शिवलोके महीयते शिवलोके महीयते शिवलोके महीयते